अखण्डमण्डलाकारं व्याप्तं येन चराचरम् तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः अज्ञानतिमिरन्धस्य ज्ञानजनशलाकया चाक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः स्तवारं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः चिन्मायं व्यापि यत् सर्वं त्रैलोक्यं सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः सर्वश्रुतिशिरोरत्ना विराजितपदम्बुजः वेदान्तम्बुजः सूर्यो यात् तस्मै श्रीगुरवे नमः चैतन्यशाश्वतशान्तो व्योमातीतो निरञ्जनः बिन्दुनादकलातीतात् तस्मै श्रीगुरवे नमः ज्ञानशक्तिसमर्रौदः तत्त्वमालाविभूषितः भुक्तिमुक्तिप्रदाताश्च तस्मै श्रीगुरवे नमः अनेकजन्मसम्प्राप्ता कर्मबन्धविदाहिने आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः शोषणं भवसिन्धोश्च ज्ञापनं सर्वसम्पदः गुरोपादोदकं सम्यक् तस्मै श्रीगुरवे नमः न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः मनात् श्रीजगन्नाथः मद्गुरु श्रीजगद्गुरुः मदात्मा सर्वभूतात्मः तस्मै श्रीगुरवे नमः गुरुरादिरनादिश्च गुरुपरमादेवतम् गुरोपरतरं नास्ति तस्मै श्रीगुरवे नमः त्वमेव माता च पिता त्वमेव बन्धुश्च सखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देव त्वमेव सर्वं मम देव देवा।